अथ सप्तम स्कंध
अथ चतुर्दशोध्याय गृह संबंधी सदाचार। युधिष्ठिर उवाच गृहस्थेताम पदवीं विधिना जेन चांजसा जाति देवऋषे ब्रूहीत मादृशो गृह मुढ्यति। नारद उवाच गृहे समस्थितो राजन क्रिया कुर्वन् गृहोचितः वासुदेवार्पणं साक्षाद् उपासीत महामुनिम्। श्रृण्वन् भगवतो भीक्ष्णम् अवतार कथामृतम् श्रद्धधानो यथा कालम् उपशान्त जनावृतः। मत्सङ्गाच्छन् कहि सङ्गम् आत्मजायात्मजादिषु विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः। यावदर्थमुपासीनो देहे गेहे च पण्डितः विरक्तो रक्तवत्तत्र निर्लोके नरतां न्यसेत्। ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोपरे यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः। दिव्यम् भौमम् चान्तरिक्षम् वित्तमच्युत निर्मितम् तत्सर्वम् उपभुञ्जान एतत् कुर्यात् स्वतो बुधः। यावत् भ्रियेत जठरम् तावत् स्वत्वम् हि देहिनाम् अधिकम् योऽभिमन्येत सस्तेनो दण्डमर्हति। मृगोष्टखर्मर्कासु सरीसृप् खगमक्षिकः आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरम् कियात्। त्रिवर्गम् नातिकृच्छ्रेण भजेत गृहमेद्यपि यथा देशम् यथा कालम् यावत् दैवोपपादितम्। आस्वाघन्ते वसायिभ्य कामान् संविभजेत् यथा अपि कामात्मनोदाराम् नृणाम् स्वत्वग्रहो यतः। जह्याद् यदर्थे स्वप्राणान् हन्याद्वा पितरम् गुरुम् तस्याम् स्वत्वम् स्त्रियाम् जह्याद् यस्ते न यजितो जितः। कृमिविद्भस्मनिष्ठान्तम् क्वेदम् तुच्छम् कलेवरम् क्व तदीयरतिर्भार्या कायमात्मा न भच्छति। सिद्धैर्जज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः शेषे स्वत्वम् त्यजन् प्राज्ञः पदवीम् महतामियात्। देवान् नृसिंहभूतानि पितॄन् आत्मानमन्वहम् स्ववृत्त्यागतवित्तेन जजेत पुरुषम् पृथक्। जर्ह्यात्मनोऽधिकाराद् याः सर्वाशिर्यज्ञसम्पदः वैतालिकेन विधिना अग्निहोत्रादिना यजेत्। न यज्ञिमुखतोऽयम् वै भगवान् सर्वज्ञभुक् इज्येत हविषा राजन् यथा विप्रमुखे हुतैः। तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः तैस्तैः कामैर्यजस्वैनम् क्षेत्रज्ञम् ब्राह्मणाननु। कुर्यादापरपक्षीयम् मासि प्रौष्ठपदे द्विजः श्राद्धम् पित्रोर्यथा वित्तम् तद्बन्धूनाम् च वित्तवान्। अयने विश्वे कुर्याद् व्यतिपाते दिनक्षये चन्द्रादित्योपरागे च द्वादशी श्रवणेषु च। तृतीयायाम् शुक्लपक्षे नवम्यामथ कार्तिके चतस्रैव अप्यष्टकासु हेमन्ते शिशिरे तथा माघे च शीतसप्तम्याम् मघाराकासमागमे राकया चानुमत्या वा मासक्षाणिजितान्यपि द्वादश्यामनुराधास्या श्रवणास्तिस्र उत्तरः। त्रिशिषु एकादशी वासु जन्मर्क्षश्रवणयोगयुक् त एते श्रेयसः काला नृणाम् श्रेयो विवर्धनः। कुर्यात् सर्वात्मनैतेषु श्रेयो मोघम् तदायुषः। एषु स्नानम् जपो होमो व्रतम् देवद्विजार्चनम् पितृदेवनिर्भूतेभ्यो यद्दत्तम् तद्ध्यनश्वरम्। संस्कारकालो जायाय अपत्यस्यात्मनस्तथा प्रेतसंस्थामृतार्हश्च कर्मणभ्युदये नृप। अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् स वै पूर्णतमो देशः सत्पात्रम् यत्र लभ्यते। बिम्बम् भगवतो यत्र सर्वमेतच्चराचरम् यत्र ब्राह्मणकुलम् तपो विद्यादयान्वितम्। यत्र यत्र हरे रज्जा सदेशः श्रेयसां पदम् यत्र गंगादयो नद्यः पुराणेषु च विश्रुतः सरांसि पुष्करादीनि क्षेत्राणि अर्हाश्रितानि त कुरुक्षेत्रम् गयशिरः प्रयागः पुलहाश्रमः नैमिषम् फाल्गुनम् सेतु प्रभासोऽथ कुशस्थली वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा नारायणाश्रमो नन्दा सीतारामाश्रमादयः सर्वे कुलाचला राजन् महेन्द्रमलयादयः एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये एतान् देशान् निषेवेत श्रेयस्कामो यभिक्ष्णशः धर्मो यत्रेहितः पुंसाम् सहस्राधिफलोदयः पात्रम् त्वत्र निरुक्तम् वै कविभिः पात्रवित्तमहि हरिरेवैक उर्विश जन्मयम् वै चराचरम् देवेषु अर्हत्सु वैशत्सु तत्र ब्रह्मात्मजादिषु राजन् जदग्रपूजायाम् मतः पात्रतयाच्युतः जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् तन्मूलत्वात् अच्युतेज्या सर्वजीवात्मतर्पणम् पुराण्यनेन सृष्टानि नृत्रिय गृषिदेवतः शेते जीवेन रूपेण पुरेषु पुरुषो यशौ तिष्वेषु भगवान् राजन् तारतम्येन वर्तते तस्मात् पात्रम् हि पुरुषो जावानात्मा जथेयते दृष्ट्वा तेषाम् मिथोनृणाम् अवज्ञानात्मताम् नृप त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ततोऽर्चायाम् हरिम् केचित् सद्दधाय सपर्यया उपासत उपास्तापि नार्थदास् पुरुषद्विषाम् पुरुषे स्वपि राजेन्द्र सुपात्रम् ब्राह्मणम् विदुः तपसा विद्यया तुष्ट्या धत्ते वेदम् हरेस्तनुम् नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः पुनन्तः पादरजसा त्रिलोकीम् दैवतम् महात् इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् सप्तमस्कन्धे सदाचार निर्णयो नाम चतुर्दशोऽध्यायः।